todavía yo puedo estar dormido.
Serio. Karabhamah, Akkaram Barurajim, Bhashakaram Patanjalim, Paninim Sutrakaranja, Pranatosmi, Munitrayam. Gata Pate, Takaranta Shabdanam Prakriyam, Jnatavantaha. Asmin Pate, Nakaranta Shabdanam Prakriyam Janimaha. Mayatra Ketana Prasiddhaha Nakaranta Shabdaha Chitaha Vartante. Gunin Shabdaha, Atman Shabdaha, Rajan Shabdaha. Tatra Gunin Shabdaha In Pratyantahasti. Inniti Kastana Tadhita Pratyaha. Bahutrasya prayogaha kriyate yogin yogi itatrapi yogin iti pratipadikam tatrapi in pratyaha yam jnani jnanin iti pratipadikam tatrapi in pratyaha yam bahutrasya prayogaha asti yogaha asya asti iti yogin yogi jnanam asya asti iti jnani gunaha asya asti iti guni tat asyasti iterthe ayam pratyaha. Tataha manin atudatoho manin pratyekrate atman itiru pratipadikam. Raju datoho kanin pratyekrate rajan iti pratipadikam. Nanta ete trayaha sabdaha atra svikriyante. Adu sarvanamasthane pare ka prakriya iti janimaha. Yathapurvam vibhajya sarvanamasthane pare Pasamnyayam, Pasamnyayanja, Katham Prakriya Piti, Janimaha. Tutra Ado, Savanamasthane Pare, Katra Kanichana Sutra Nimaya Lakitani Santi. Prathamam, Rajan Shabdam Sikoromi. Rajan. Itasmat ekavachana pratyaha su iti rajan su iti sthite upatha dirghaha pravartate sarvanamasthane cha asambuddhau iti sutram kaha arthaha iti chet nakarantasya upathayaha dirghasyat asambuddhau sarvanamasthane pare. Nakarantasya upathayaha dirghaha. Rajan shabdaha nakarantaha asti. Nakarantasya upathayaha dirghaha. Upatha iti kachit vyakarana shastre samjna. Antyat purvaha varnaha upatha iti padena katyate. Asmin udaharane antyaha varnaha kaha nakaraha. Tasmat purvaha varnaha kaha akaraha. Atah antyat purvaha varnaha akaraha. Tasya upatha iti samjna. Nakarantasya shabdasya. Atra rajaniti nakarantahaddaha. Nakarantasya shabdasya upathayaha dirghaha. Upatha upathayam akaraha asti. Tasya dirghaha chet rajan iti rupam bhavati. Upathayaha dirghaha. Rajan su. Astin sutre sarvanamasthane iti padam vartate. Atah sarvanamasthane sarvanamasthana pratyaye pare sarvatrapi dirghaha. Panchasu pratyayeshu pareshu api dirghaha bhavati. Anyaccha padam asti tatra asambuddhau iti. Maya puram prayah uktam sambuddhihi iti kachit samnya. Sambodhane यः एकवचनप्रत्ययः प्रथमाविभक्तेः प्रत्ययः सम्बोधन विभक्तेः प्रत्ययः च समानः अतः सम्बोधनप्रथमा इत्येव व्यवहारः उभयत्रापि समानः प्रत्ययः उपयुज्यते किन्तु तत्र सम्बोधने यः प्रत्ययः प्रथम एकवचनप्रत्ययः तस्य तस्मिन् परे उपधादीर्घः नास्ति अतः असम्बुद्धौ सर्वनामस्थाने इत्युक्तं सम्बुद्धौ परे सम्बुद्धिः इति एकवचनप्रत्यय सम्बोधने यः एकवचनप्रत्ययः तस्य संज्ञा द्विवचने दीर्घः भवितुमर्हति बहुवचने दीर्घः भवति एकवचने दीर्घः एकवचनप्रत्यये परे दीर्घः न भवति सम्बोधने अतः असम्बुद्धौ सर्वनामस्थाने इत्युक्तं नकारान्तस्य उपधायाः दीर्घः असम्बुद्धौ सर्वनामस्थाने परे एवञ्च राजान् सु इति सिद्धं ततः सकारस्य लोपः पूर्वं गतपाठे पितं सूत्रम् उक्तम् हल्ङ्याभ्यो दीर्घात् सुतिस्य वृक्तं हल इति गतपाठे उक्तं तत्र नास्ति हल्ङ्य तेन सूत्रे हल्ङ्याभ्यो इति सूत्रं तेन सूत्रेण सुप्रत्ययस्य लोपः भवति सु इत्यस्य लोपः राजान् इति अवशिष्यते इदानीं न लोपः प्रातिपदिकान्तस्य इति सूत्रम् प्रातिपदिकान्तं यत् पदम् अर्थात् प्रातिपदिकसंज्ञकं यत् इदं राजान् इत्यस्य प्रातिपदिकसंज्ञा तस्य एव पदसंज्ञापि वर्तते किमर्थं सुबन्तं तिङन्तञ्च पदम् अत्र इदं सुबन्तं सुप्रत्ययः आगत्य लुप्तः एवञ्च सुबन्तत्वमस्ति राजान् इत्यस्य अतः राजान् इति सुबन्तं पुनश्च प्रातिपदिकमपि तदेव आसीत् अतः प्रातिपदिकान्तं यत् पदं राजान् इति तस्य यः नकारः अन्तिमः वर्णः यः नकारः तस्य लोपः भवति पञ्च नकारस्य लोपः राजा इत्यवशिष्यते पञ्च प्रथमाभक्तेः एकवचने राजा इति रूपम् आदौ उपधादीर्घः ततः सुप्रत्ययस्य लोपः नकारस्य लोपः राजा अतः राजन् औ द्विवचनं राजन् औ मया उक्तं सर्वनामस्थाने प्रत्यये परे सर्वत्रापि दीर्घः इति अतः राजान् दीर्घः उपधा दीर्घः राजान् औ राजानौ राजन् राजा राजानौ एवमेव बहुवचनेपि राजानः राजन् अस्तु राजानः सम्बोधन एकवचने तत्र विशेषः वर्तते राजन् हे इति योजयामि सम्बोधनम् इति ज्ञातुं हे राजन् सु अत्र उपधादीर्घः नास्ति यथा मया उक्तम् असम्बुद्धौ इति पदं वर्तते असम्बुद्धौ सर्वनामस्थाने परे सम्बुद्धिः इति एकवचनप्रत्यये सम्बोधने यः एकवचनप्रत्ययः तस्य संज्ञा अत्र सु इति सम्बोधने एकवचनप्रत्ययः अस्ति अस्मिन् उदाहरणे अतः तस्मिन् परे उपधादीर्घः नास्ति पुनः हलियाभ्यो इति सूत्रेण सुप्रत्ययस्य लोपः भवति नलोपः प्रातिपदिकान्तस्य इति सूत्रेण नकारस्य लोपः अपि न भवति. किमर्थं न भवति? अग्रिमं सूत्रमस्ति न ङि सम्बुद्ध्योः इति. सम्बुद्धौ अत्रापि सम्बुद्धिः इति पदम् वर्तते, नङि सम्बुद्ध्योः इति. एवञ्च सम्बुद्धौ सम्बुद्धौ परे, सम्बुद्धिः अत्र वर्तते, सम्बुद्धौ परे नकारस्य लोपः नास्ति. एवञ्च यद्यपि सः लुप्तः तस्य प्रभावः अस्त्येव, अतः तस्मिन् परे नकारस्य लोपः नास्ति. एवञ्च हे राजन् इत्येव अवशिष्यते. हे राजन् इत्येव एकवचने रूपं, द्विवचने दीर्घः भवत्येव, अतः हे राजानौ, हे राजानः. द्वितीयाविभक्तिः एकवचने राजानं, राजन् अं, राजानम्. द्वितीयाविभक्तेः द्विवचने राजानौ. एवञ्च एते पञ्च प्रत्ययाः, सर्वनामस्थानप्रत्ययाः, एतेषु परेषु सर्वत्रापि दीर्घः भवत्येव. ततः आत्मनशब्दः, आत्मनशब्दस्य राजनशब्दस्य च प्रक्रिया समाना अस्ति, कोऽपि विशेषः नास्ति, अतः तं शब्दं त्यजामि. तृतीयः अस्ति गुणिन् शब्दः, अत्र विशेषः वर्तते. गुणिन् इति स्थिते उपधादीर्घः, सर्वनामस्थाने चासम्बुद्धौ इति उपधादीर्घः भवेत्. किन्तु इदं सूत्रम् अत्र न प्रवर्तते. किमर्थम्? उत्तरत्र अत्र पश्यन्तु 648 इदं सूत्रं, 6412 द्वादशतमं सूत्रम्, इन्हन् पूषार्यम्णां शौ. एवञ्च इदं सूत्रं परमस्ति, अतः सर्वनामस्थाने चासम्बुद्धौ इति सूत्रस्य अपेक्षया अस्य बलम् अधिकं परत्वात्, तस्मात् इदं सूत्रम् अत्र प्रवर्तते. इन्हन् पूषार् यम्णां शौ. किमुच्यते अनेन सूत्रेण इति चेत्, अत्र कानिचन पदानि दृश्यन्ते. इन् हन् पूषा नाम पूषन् अर्यमन्, इन्हन् पूषार्यम्णां शौ. शौ इति सप्तमीविभक्तिः, शिशब्दस्य शि इत्यस्य सप्तमीविभक्तिः शौ इति. एतेषाम्, एतेषां नाम इन्नन्तानाम्. उदाहरणार्थं गुणिनशब्दः इन्नन्तः अस्ति, एवं हन् अन्तस्य, यत्र हन् इति अन्ते भवति, तादृशः शब्दः, वृत्रहन् इत्यादि शब्दाः सन्ति. पुनः पूषन् शब्दः, अर्यमन् शब्दः, सर्वे नकारान्ताः. एतेषां शौ एव दीर्घः. शौ इत्येन शी इति प्रत्ययः गृह्यते. शी इति प्रत्ययः एतावता अस्माभिः न दृष्टः. शी प्रत्ययः नपुंसकलिङ्गे प्रयुज्यते. नपुंसकलिङ्गे बहुवचने, प्रथमाविभक्तेः बहुवचने, द्वितीयाविभक्तेः बहुवचने च शी इति प्रत्ययः. तद्विषयम् उत्तरत्र वदिष्यामि. तस्मिन् परे एव दीर्घः, अन्यत्र दीर्घः नास्ति. एवञ्च सर्वनामस्थाने परे दीर्घः प्राप्तः, सर्वनामस्थाने च असम्बुद्धौ इति सूत्रेण प्राप्तः दीर्घः, तत् अनेन सूत्रेण निषिध्यते. शौ एव दीर्घः इत्युच्यते अनेन. एतेषां शब्दानां शौ एव दीर्घः, अन्यत्र दीर्घः नास्ति. किन्तु ततः इतोप्येकं सूत्रमस्ति सौ च इति. सौ अपि दीर्घः. सौ इत्यनेन सु प्रत्ययः गृह्यते. सु इत्यस्य सप्तमीविभक्तिः सौ इति. एवञ्च सुप्रत्यये परे अपि दीर्घः भवति. एतेषाम् इन् हन् पूषार्यम्णां सौ च दीर्घः इत्यर्थः. एवञ्च किं सिद्धं? शौ शी प्रत्यये परे नपुंसकलिङ्गे प्रथमाविभक्तेः बहुवचनं, द्वितीयाविभक्तेः बहुवचनं, तत्र शी इति प्रत्ययः. तस्मिन् परे सौ सुप्रत्यये परे च दीर्घः इति लभ्यते। एवञ्च गुणिन् सु इति स्थिते अत्र सु इति प्रत्ययः, अतः सुप्रत्यये परे दीर्घः अस्ति, अन्येषु सर्वनामस्थानप्रत्ययेषु परेषु दीर्घः नास्ति, केवलं सुप्रत्यये परे एव दीर्घः। एवञ्च अत्र दीर्घः भवति दीर्घे कृते गुणीन् सु, ततः पूर्ववत् हल्याभ्यो दीर्घात् सुतिस्य प्रक्तं हलो इत्यनेन सुप्रत्ययस्य लोपः, न लोपः प्रातिपदिकान्तस्य सूत्रेण नकारस्य लोपः, गुणी इति रूपम् एकवचने। गुणी तत्र सूत्रविभागः कृतः, इन्हन् पूषार्यम्णां शौ इत्येकं सूत्रं, सौ च इति विभागकरणं, तत्र शौ एव दीर्घः अन्यत् दीर्घः न इति निषेद्धुं तत्र प्रायः शौ सौ च इति वक्तुं शक्यते स्म इति अत्र आशयः उक्तः। अहं परिशीलयामि कोऽपि विशेषः, अन्यः कोऽपि विशेषः वर्तते वा इति। गुणी इति रूपं, ततः परं द्विवचनं, गुणिन् औ, अत्र मया उक्तं सौ एव दीर्घः, अन्यत्र दीर्घः नास्ति, सर्वनामस्थाने च असम्बुद्धौ इति सूत्रं न प्रवर्तते, अतः द्विवचने दीर्घः न भवति, गुणिनौ इत्येव। गुणिनौ इत्येव रूपम्। एवं बहुवचनेपि गुणिनः दीर्घः नास्ति, किन्तु सम्बोधने किं भवति इति चेत्, हे गुणिन् स, अत्र सौ च इति उक्तं, किन्तु तदपि असम्बुद्धौ एव, सम्बुद्धौ न प्रवर्तते, अतः हे अत्र उपधादीर्घः नास्ति, सु इत्यस्य लोपः, नकारस्य लोपः न भवति, तत्र न ङी सम्बुद्ध्योः इति निषेधः अस्ति, सम्बुद्धौ परे नकारस्य लोपः नास्ति, एवञ्च हे गुणिन् इत्येव रूपं सम्बोधने, हे गुणिन् इत्येव रूपं, हे गुणिन्, हे गुणिनौ, हे गुणिनः। द्वितीयभक्तेः एकवचने गुणिनं, द्विवचने गुणिनौ, कुत्रापि दीर्घः नास्ति इत्येवं सर्वनामस्थानप्रत्यये परे प्रक्रिया। Can you explain why Divacana or Bahuvacana उपधा दीर्घ नॉट वैलिड। कुत्र आई थिंक इट इज अबाउट गुडिन शब्द बिकॉज दिस सूत्र सेज सौ परे दीर्घ ओनली वेन सुप्रत्यय फॉलोस सुप्रत्यय परे एव दीर्घ अतः द्विवचने बहुवचने च दीर्घ नास्ति। सु इति एकवचन प्रत्ययः एकवचन प्रत्यय परे एव दीर्घः। जस्ट अ मिनट। प्र एकवचनम् अपुनि अत्र सर्वाणि रूपाणि सन्ति। प्रथम एकवचनं कल्याण महोदयः गुणिनि शब्दस्य एकवचन रूपम् प्रश्नः वर्तते वा कल्याणजी? Can you explain why prathama vibhakti called sarvanama sthanam? Not only prathama vibhakti, I previously explained about three samnyas. Sarvanama sthana samnya, pada samnya and bhasamnya. The first five pratyayas, su, au, jas, am, out. These are the five first supratyayas. There are 21 supratyayas. The first five pratyayas are called sarvanama sthana. Sarvanama sthanam iti paninehi samnya. एते पञ्चप्रत्ययाः सर्वनामस्थानम् इति पदेन कथ्यन्ते। तत्र सुट् अनपुंसकस्य इति पाणिनेः सूत्रम्। सुट् सुट् इत्यनेन सु औ जस् अम् औट् औट् टकारः अस्ति अन्ते तावत्पर्यन्तम् इत्यर्थः सुट्। अनपुंसकस्य अनपुंसकलिङ्गे नास्ति सर्वनामस्थानसंज्ञा, तत्र पुल्लिङ्गे स्त्रीलिङ्गे च प्रवर्तते, अतः सुट् अनपुंसकस्य। Can you explain how it works? Samriddhi again. Sambuddhi. I think it is about Sambuddhi. Na ni sambuddhi. Atra, see. Sambuddhi iti sambodhane yaha ekavachana pratyayaha. संबोधने सु गुणिन् सु संबोधने यः एकवचन प्रत्ययः तस्य संबुद्धिः इति नाम। संबुद्धि संबुद्धि इस् अ टेक्निकल् टर्म्। संबुद्धि एकवचनप्रत्ययस्य संबोधने यः एकवचनप्रत्ययः तस्य संबुद्धिः इति नाम। सम्बुद्धौ कानिचन कार्याणि न भवन्ति। एकवचने प्रथमाविभक्तेः एकवचने कानिचन कार्याणि भवन्ति, तानि कार्याणि सम्बुद्धौ न भवन्ति, तद् निषेधः वर्तते। उदाहरणार्थम् अत्र उपधादीर्घः, उपधादीर्घः सर्वनामस्थाने च असम्बुद्धौ इत्युक्तम्। अतः यद्यपि प्रत्ययः समानः, एकवचने अत्रापि सु इत्येव प्रत्ययः, अत्रापि सु इत्येव प्रत्ययः, सम्बोधने अपि सु इत्येव प्रत्ययः, किन्तु प्रथमाविभक्तेः एकवचने सूत्रं प्रवर्तते, सम्बोधन एकवचने सूत्रं न प्रवर्तते। किमर्थं? तत्र निषेधः वर्तते, असम्बुद्धौ इति निषेधः अस्ति। एवमेव नकारस्य लोपः अपि न भवति। तत्र किं कारणं? न ङि सम्बुद्ध्योः इति सूत्रमस्ति। नकारस्य लोपः सम्बुद्धौ परे न, ङीसम्बुद्ध्योः इति द्विवचनमस्ति। तत्र ङी इति कश्चन प्रत्ययः, ङी इति सप्तमीभक्तिप्रत्ययः एव, सप्तमीभक्तेः एकवचनप्रत्ययः, किन्तु अस्य उदाहरणं वैदिकम् उदाहरणं भवति, अतः सद्यः न वदामि। द्वितीयं पदमस्ति सम्बुद्धिः इति, सप्तमीभक्तेः द्विवचनं न ङीसम्बुद्ध्योः इति। ङौ सम्बुद्धौ च परतः नकारस्य लोपः न भवति, अतः यद्यपि एकवचने प्रथमाविभक्तेः एकवचने नकारस्य लोपः भवति, किन्तु सम्बुद्धौ परे अर्थात् सम्बोधने एकवचने नकारस्य लोपः न भवति. एवं प्रथमाएकवचने यानि कार्याणि भवन्ति सर्वाणि सम्बोधने एकवचने न भवन्ति, तत्र निषेधाः सन्ति. अस्तु, अत्रापि द्रष्टुं शक्नुमः राजा इति प्रथमाएकवचने, राजन् इति सम्बोधने एकवचने, उपसादीर्घः नास्ति, अत्र नकारस्य लोपः अपि नास्ति, यतः असम्बुद्धौ इति पदं वर्तते. अस्तु, ओके, इदानीं डज ऑल द वर्ड्स विद उपधा आर दीर्घ नकारांतस्य उपधायाः. So the word should end with nakara. Nakaranta word. Nakarantasya upathayah dirgha. If the word ends with nakara, then the upatha gets dirgha. But again, as I said, there are exceptions. For example, in gunin shabda, only in ekavachana it gets dirgha, not in divachana or bahuvachana. So sarvanamasthane cha asambuddhu is a general rule. There are exceptions to that rule. Okay. So you will find all these dirgha related rules in Shashtadhyaya Chaturtha Pada. Sarvanamasthane cha asambuddho. From onwards, from that rule, there are many such rules. Even this Inhan Pushariyam Nam Saucha इति सूत्रद्वयमपि तत्रैव अस्ति. एवं तत्र कानिचन सूत्राणि दीर्घविधायकानि सूत्राणि सन्ति. इदानीम् इदं मया गतपाठे उक्तं, तकारान्तशब्दानाम् अजादिप्रत्यये परे किं भवति इति गतपाठे उक्तवान्. सो तत्र पुनः वक्तव्यं नास्ति, विशेष किमपि न भवति अतः अपि वक्तव्यं नास्ति, तत्र केवलं योजनमेव. फार् एक्साम्पल् पचत् अ इति अस्ति चेत् पचत् ता इति तृतीयाविभक्ति एकवचनप्रत्ययः, पचत् आ इति अजादिप्रत्ययः परे किमपि न भवति, पचत् आ पचत, पचत् आ पचत, किमपि नास्ति. अतः यदा भसंज्ञा अस्ति अजादिप्रत्यये परे, नाम भसंज्ञा, यदा भसंज्ञा अस्ति किमपि कार्यं न भवति. नकारान्तशब्द इदं तकारान्तान विषये, नकारान्तशब्दात् अजादिप्रत्यये परे किं भवति इति चेत्, तत्र सामान्यतः किमपि न भवति. उदाहरणार्थं राजन् शब्दः अत्र गुणिन् शब्द, प्रथमं गुणिन् शब्दस्य उदाहरणं दर्शयामि. गुणिन् अ, गुणिन् आ तृतीयाभक्तेः एकवचनप्रत्ययः, अत्र किमपि सूत्रं न प्रवर्तते, गुणिना, गुणिना. एवं गुणिन् ए इति प्रत्ययश्चेत् गुणिन् ए गुणिने, इ इति प्रत्ययश्चेत् गुणिन् इ गुणिनि, इत्येवं किमपि सूत्रं नास्ति विशेषेण. एवम् आत्मनिशब्देपि एवमेव, किन्तु राजन् शब्दे केचन विशेषाः सन्ति. तत्र सूत्रद्वयं तत्र वर्तते, तद् लिखितमस्ति मया. ओके, सम् नकारान्त ऐ थिङ्क् हेव् गिवन् इन् दट् मै बुक् सम् एक्सैज़् ऐ हेव् गिवन्. There are some, because, for example, yogin yogin generally, so you will find many the nakaranta words like this, like gunin shabda. For example, yogin is there. Yogin and jnanin. Iti sarvepi nakaran shabdaha, sarvepi gunin shabda vade charanti. Atman rajan iti vishesh shabdaha. So, saha pratyaha anebhyana bhavati. Kintu in pratyaha yaha asti, saha sarvebhya bhavitum arahati. Ataha, so you will get such words. Many such words you will find. Nakaranta word, but in pratyayanta. Like gunin, yogin, jnanin, bhogin, bhogi, bhogin. Such words you will find. So you can practice with such nakaranta words. Okay, yeah. Now, regarding this Rajana Shabda, there are two sutras, Alloponaha and Vibhasha Nishyoho. Prathamam sutramasti, Alloponaha iti. Allopaha anaha. Anaha, atra Rajana Shabdaha. Rajan a atra an iti asti anaha iti sutre uktam anaha an iti padam atra asti an iti shabdah atra asti rajan anaha allopaha akarasya lopaha anaha akarasya lopaha evancha an iti atra vidyamanasya akarasya अर्थात जकारात परम यह अकारः अस्ति जकारात एवं वर्तते तत्र ज प्लस अ प्लस न राजन इत्यस्ति अनः अन्निति अयम् भागः अनः अकारस्य लोपः एवञ्च किम् अवशिष्टम् इति चेत् राज न इति अवशिष्टम् राज न इति अवशिष्टम् इतः परं सन्धिकार्यं यतः जकारात् नकारः अस्ति एवञ्च स्तोः स्तुनास्तुः इत्यनेन नकारस्य स्थाने ञकारः भवति ततः योजिते राज्ञ एवञ्च राज्ञा इति रूपम् सो राज न स्तोस्तु नास्तुः राज्ञा अत्र एकं सूत्रं प्रवर्तते अल्लोपोनः इति अग्रे एवमेव यत्र यत्र भसं नास्ति अर्थात् यदा अजादिप्रत्ययः परे वर्तते सर्वत्र अपि अल्लोपोनः इति सूत्रेण अकारस्य लोपः भवति राज्ञा राज्ञे सर्वत्रापि राज्ञे राज्ञः सर्वत्रापि अकारस्य लोपः किन्तु अग्रिमं सूत्रमस्ति 134 इदं 136 विभाषा निश्योः विभाषा इत्यस्य विकल्पः इत्यर्थः विभाषा निश्योः नि शि अत्र नि प्रत्ययः अपेक्षितः सप्तमीविभक्तेः एकवचनप्रत्ययः नि इति तस्मिन् परे विकल्पः अर्थात् अल्लोपोनः इति सूत्रेण यः अकारलोपः विहितः सः विकल्पेन प्रवर्तते पक्षे भवति पक्षे न भवति एवञ्च रूपद्वयं सिद्ध्यति उदाहरणार्थं राजन् सप्तमीविभक्तेः एकवचनप्रत्ययः ङि इति तत्र इ इत्येव अवशिष्यते अत्र अनः अकारस्य लोपः विकल्पेन इत्युक्तम् एवञ्च यदि लोपः क्रियते तर्हि राज न इ इति रूपं यदि लोपः नास्ति तर्हि राजन् अत्र स्तुत्वे कृते योजिते राज्ञि राज्ञि इति एकं रूपम्, अन्यत् राजनी इति रूपम्, इत्येवं रूपद्वयम् राज्ञि राजनि. एवञ्च सप्तमी विभक्तेः एकवचने रूपद्वयमस्ति. अन्यत्र सर्वत्र अजादिप्रत्यये परे अकारस्य लोपः भवति. राज्ञा राज्ञोः इत्यादि रूपाणि सिद्ध्यन्ति. गुणिन् आत्मन् अनयोः शब्दयोः विषये तु कोऽपि नियमः नास्ति, एवञ्च केवलं प्रत्ययानां योजनम्. नकारात् पूर्वं विद्यमानस्य अकारस्य लोपः भवति. सप्तम्येकवचने तु विकल्पेन लोपः, ऑप्शनल्. ओके ओके नौ हलादिप्रत्यये परे. सो हलादिप्रत्यये मीन्स् देयर् विल् बि भसम् देयर् विल् बि पदसंज्ञा. यदा पदसंज्ञा अस्ति सो रूल् रिलेटेड् टु पद देयर् अप्लिकेबल्. सो तकारान्तशब्दानां विषये मया उक्तं, दिस् ऐ मेन्शन्ड् इन् द लास्ट् क्लास् इट्सेल्फ. तकारान्तात् हलादिप्रत्यये परे जस्त्व, दिस् पद रिलेटेड् रूल् जस्त्व. जस्त्वं भवति, एवञ्च गुणवत् तकारस्य स्थाने जस्त्व मीन्स् त विल् बि रिप्लेस् वित् दकार. गुणवद्भ्यां गुणवद्भ्याम् एवं सर्वत्रापि पचद्भ्यां महद्भ्यां गुणवद्भ्यां भवद्भ्यां सर्वत्रापि तकारस्य स्थाने दकारः. नकारान्तशब्दात् हलादिप्रत्यये परे नकारस्य लोपः भवति. समानं सूत्रं विश्वडिति सूत्र न लोपः प्रातिपदिकान्तस्य. नौ अत्र गुणिन् शब्दस्य दिस् गुणिन् हेस् प्रातिपदिक, दिस् प्रातिपदिक एण्ड् इट् आल्सो हेस् पदसंज्ञा एस् वि नो. सो वेन् हलादिप्रत्यय फालोस् द अङ्ग हेस् पदसंज्ञा. सिन्स् इट् इस् अ पद, दिस् नलोपः प्रातिपदिकान्तस्य इस् अप्लिकेबल्. एवञ्च गुणिन् भ्यां, सो नकारस्य लोपः गुणिभ्यां. राजन् भ्यां, नकारस्य लोपः राजभ्याम्. सो इति एकमेव सूत्रम्. नकारान्तशब्द, हौ विल् वि नो देट् राजन् बि ट्रीटेड् डिफरेण्ट्लि कम्पेर् टु गुणिन् फार् तृतीया विभक्ति. उत्तमम्. सि बिकास् द सूत्र सेस् अल्लोपः अनः इफ् देर् इस् अन्. सो अगेन् यु मे आस्क् a question, because you will find an in atman shabda also. In gunin shabda you won't find an because it ends with in. So this rule is not applicable. But in atman shabda also you will find an, and even in rajan shabda there is an. Why I applied rule only for rajan, why I didn't apply to atman? So there is again an exception, there is a apavada to this. I forgot to mention that there is an apavada to allopunah. So if there is sanyoga like this, for example here sanyoga with makara, if there is sanyoga with makara or vakara, then this akara lopa is not applicable. Na sanyogat va mantat. Then for example there is a shabda brahman, is also an akara anta brahman. Again there is sanyoga brahma, there is sanyoga between hakara and nakara, therefore this akara note akara lopa is not applicable even in brahman shabda. So all these words they have sanyoga. So only this rajana shabda there is no sanyoga and it ends with an, therefore this rule is applicable to rajana shabda. Allopaha anaha, there should be an, and there should not be such sanyoga, sanyoga with makara. So in all other words you will either find sanyoga or you won't find ananda shabda. therefore in rajana shabde asya niyamasya anvaya bhavati so akarasya lopa bhavati okay on nakaranta shabda how will we know that rajan be treated differently compared to gunin for tritiya bhakti so this is the reason so this rule is applicable only for rajana shabda okay so I will write this exception rule here na sanyoga just a minute choose different color so na sanyoga dvamanta na sanyoga dvamanta sutra so there is an exception to allopanaha if there is sanyoga vakaranta sanyoga or makaranta sanyoga then this rule allopanaha is not applicable for example another example we this edge one so here we will find sanyoga with vakara ju and vu those ananta there is sanyoga between jakara and vakara therefore the rule is not applicable So the example of vakaranta vakara sanyoga brahman atman etc they are example of vakara sanyoga okay sutra kramankah asti 64137 64137 na sanyoga tamanta so immediately after vibhashan issue you will find this sutra can you expand allopaha means rule is allopaha anaha allopaha at at lopaha allopaha ataha see there is a sandhi at at means hrasvakara at lopa allopa lopa of hrasva akara ityartha allopa akarasya lopa allopa okay atra sarve shabdaha takaranta sarve shabdaha santi brahayam bhedam drashtum shaknumaha maha see this is sarvanamasthana in the whichever in blue that is sarvanama sthana so we will find the difference so there is dirgha mahan mahanto mahantah upada dirgha and nakara is there mahanto mahantah but see here this is bha wherever there is red there is bhasamnya yapi atra karyam nakratam mahat aha mahatah mahat a mahata mahat e mahate mahat as mahatah So, just we added the anga to pratyaya. But here, since there is padasamnya, some sandhi rules are applicable. Here, jastva is applied. So, mahat bhyam became mahad takarasya sthane dakaraha agataha. Mahad bhyam. Everywhere you will find mahad bhyam, mahad bhyaha, mahad bhyaha, mahad bhyaha, mahad bhyaha. Well, here I said that the kharicha, there is one more rule called kharicha. So after doing jastva kharicha is applicable therefore it again changed to takara mahatsu so this is how we can see the difference so samjnam avalambya sarvanama sthanam bhasam bham padam iti samjna trayam avalambya sutrani pravartante atrapi pachat shabde sarvanama sthane rupani bhinnani santi visishtani santi tra bhasamnyayam rupani anyani vartante padasamnyayam rupani anyatha vartante एवं गुणवच्छब्दे अपि तथैव तत्र नकारान्तशब्देष्वपि एवमेव अत्र सर्वनामस्थाने परे प्रक्रिया अन्या अस्ति पसंज्ञायां प्रक्रिया अन्या अस्ति, अत्र विशेषः कोऽपि नास्ति, केवलं प्रत्ययानां योजनमेव. पदसंज्ञायां सत्यां प्रक्रिया अन्यास्ति, सर्वत्र नकारस्य लोपः वर्तते. एवम् आत्मनशब्दे अपि राजनशब्दे वयं द्रष्टुं शक्नुमः, यत्र पदसंज्ञा यत्र पसंज्ञा अस्ति तत्र अकारस्य लोपः वर्तते. अत्र विकल्पेन लोपः सप्तमे एकवचने मया दर्शितम्, अत्रापि अकारस्य लोपः, अत्रापि अकारस्य लोपः. यदा पदसंज्ञा अस्ति अकारस्य लोपः नास्ति, केवलं नकारस्य लोपः वर्तते. इत्येवं सर्वत्रापि संज्ञाम् एताः संज्ञाः अवलम्ब्य सर्वनामस्थानं भं पदम् एताः संज्ञाः अवलम्ब्य एव सूत्राणि प्रवर्तन्ते. अतः अनया रीत्या एव एतेषां विशेषेण हलन्तानां प्रक्रिया अस्माभिः ज्ञातव्या, तदा एव अत्र सौलभ्यं भवति. अत्र केचन शब्दाः मया लिखिताः सन्ति, एते सर्वे अपि इन्नन्ताः, इन् अन्ताः एव. गुणिन् विवेकिन् विवेकी इति एकवचने रूपं, मनस्विन् मनस्वी अस्तु, अत्र अर्थिन् सुखिन् अर्थः, सुखम् अस्य अस्ति सुखिन्, दुःखम् अस्य अस्ति दुःखिन् दुःखी, प्राणी योगी रोगी यशस्वी, एते सर्वेपि एतादृशाः एव शब्दाः. Oh, okay. I think there is a mistake in the previous slide. Pachan, why you don't have the just a minute. We'll change this. Where? Pachan, Pachanto, Pachantaha, Pachan, hey, Pachan. Pachan, where is Dirgha? Is it in it? Dirgha kutra api asti iti uktam. Kutra. Pustake Dirgha vartate va? Yeah, prathama gunin di kayena padata. There is no dirgha mahat becomes mahan. Sorry, dirgha, what is pachan, why we do not have dirgha in sarvanama prathama vibhakti? Where in Pachan Shabda? There is no rule for Dirgha, therefore, which I explained in the previous class. So there are no such rules. Therefore, there is no Dirgha. So I gave those rules in the previous class itself. In that slides you will find. So there is no such rule where this Dirgha is applicable. Pachan does not become Pachan. Eva. Pachan, Pachan Nabhavati, taha atra sutram nasti. So, the rules related to Mahat, this Takaranta Shabda, as I explained in the previous class, so there is no such a rule by which it can get Dirgha. Therefore, you won't find Dirgha in Pachan Shabda, in Shatranta Shabdas, but for others, there are other rules. Therefore, there is Dirgha. Okay, yeah. Then okay. That is Halanta Stilinga Shabdaha. Atrapi Vishesha Kopinasti. Maya Vach Shabdaha Sikrataha. Chakarantaha Vach Shabdaha. Vach iti Chakarantaha Shabdaha. Atra Sandhikaryani Kevalam Pravartante Anyat Kimapi Nasti. Vach Su इति प्रथमः प्रत्ययः. सु इत्यस्य लोपः, समानं सूत्रं हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रेण. तत्परम् इदानीं वाच् इत्यस्ति, इतः परं सन्धिकार्याणि हल् सन्धिकार्याणि प्रवर्तन्ते. चकारान्तः शब्दः इति कारणात् तत्र चोः कुः इति सूत्रं मया पाठितं. तेन सूत्रेण चकारस्य स्थाने ककारः भवति वाक्. प्रथमं एकं निमेषम्. यतः एतानि सूत्राणि त्रिपाद्यां वर्तन्ते, यतः त्रिपादीसूत्रक्रमं दृष्ट्वा एव तत्र प्रवृत्तिः भवति. एवम् एवञ्च चोः कुः इति 2, 8, 2, 30, अतः प्रथमं चोः कुः प्रवर्तते. देन् झलां जशोन्ते 8, 2, 39, अतः देन् झलां जशोन्ते इस् अप्लिकेबल्. वाक् बिकम्स् वाग्. देन् वावसाने दट् इस् 8, 4, 56, देर्फोर् दट् इस् अप्लिकेबल् लेटर्. सो आप्शनली इट् गेट्स् ककार वाक् आर् वाग्. दीस् आर् आल् हल् सन्धि रूल्स् विच् वि स्टडीड् प्रिवियस्लि. फस्ट् चोः कुः, देन् झलां जशोन्ते, देन् वावसाने. सो वाक् वाग्. वाचौ जस्ट् वाच्. ओ सारि, दिस् इस् नाट् वाक्, वाच्. वाच् इस् अ प्रातिपदिक, दोषः अस्ति. वाच् प्लस् औ वाचौ, विशेषः नास्ति. वाच् प्लस् अः वाचः. सो अत्र सर्वनामस्थानं भसं भं पदम् अवलम्ब्य सर्वनामस्थाने कोऽपि विशेषः नास्ति, पदसंज्ञायमपि विशेषः नास्ति, भसंज्ञायमपि विशेषः नास्ति. यत्र पदसंज्ञा अस्ति तत्र विशेषः वर्तते. वाचं वाचौ वाचः वाचा वाचे कोऽपि विशेषः नास्ति, केवलं प्रत्ययस्य योजनं. किन्तु यत्र पदसंज्ञा अस्ति तत्र विशेषः वर्तते. वाग्भ्यां वाच् भ्याम् वाचभ्याम् अगेन् दिस् चोः कुः इस् अप्लिकेबल्. वाक्भ्यां ततः परं झलां दशोन्ते अप्लिकेबल्. वाग्भ्याम् अत्रापि पदसंज्ञा आसीत् इन् प्रथमविभक्ति एकवचन, दर् इस् पदसंज्ञा, दे फोर् वि अप्लैड् आल् दीस् रूल्स्. अगेन् इन् वेन् हलादिप्रत्यय फालोस्, अगेन् दर् इस् पदसंज्ञा, दे फोर् आल् दीस् रूल्स् आर् अप्लिकेबल्. चोः कुः एण्ड् झलां दशोन्ते, सिन्स् देर् इस् नो अवसान, वावसाने इस् नाट् अप्लैड् हियर्. बट् वि अप्लैड् देट् इन् प्रथमविभक्ति एकवचन, बट् इट् इस् नाट् अप्लिकेबल् हियर्. वाग्भ्यां सेम् वित् वाग्भिः, वाग्भ्यां वाग्भ्यः वाग्भ्यां वाग्भ्यः. देन् वाक्षु वाक्षु इन् इट् इस् वाच् प्लस् सु. देन् चोः कुः वाक्. देन् झलां जशोन्ते वाग्. ओके बिफोर् झलां जशोन्ते बिफोर् झलां जशोन्ते दिस् सकार चेञ्ज् टु शकार. आदेशप्रत्ययोः दट् आल्सो बि स्टडीड् इन् हल् सन्धि चाप्टर्. वाक्षु देन् ककार गेट्स् गकार. वाग्षु देन् देर् इस् अ रूल् खरि च दट् गकार चेञ्ज् टु ककार अगेन्. सो क प्लस् ष बिकम् क्ष. क प्लस् षु क्षु. सो वाक्षु. Yes, is there any pratyaya in watch? Yes, that is actually vach dhatu, vacha paribhashane is a dhatu, and I think it is quip pratyaya. Just I will check a minute, because if in quip pratyaya the sampurna pratyayasya lopaha bhavati. Quip is a krit pratyaya, but it completely get lopa, so nothing remains. So only if quip pratyaya is added, you will find only dhatu. But the watch became watch. Only that is the difference. And previously it was a dhatu. After adding krit pratyaya, it became kridanta. And it's a pratipadika. Yeah, so it is a correct. So it's a quip pratyaya. Vachadhatu, quip pratyaya, watch. Iti pratipadika. Astu? Yeah. Halanta stilinga shabdanam vishayuktam. Halanta napumsakalinga shabdaha. Api ketana santi. Tadvishaye aham agre vadishyami. Anyatcha ekaha vishayaha. Indra kaishchit prashtam asit in the group. I saw some messages. Can we get the soft copy of this book? But I also thinking I can convert. If someone knows the how to create website, I can create this. I can convert this book into a website so that I can upload the changes, because I can see in some places there are typos, because I alone did everything, even page setting, typing, correction, everything I did alone. So I didn't get anyone to do this. Therefore, there are typos also. If someone knows the web designing, or someone can help me in this regard, this work, I can convert the whole book into a website so that anyone can read easily, and I can add more contents. Actually, I'm thinking to now aspin pustake kevalam is overview asti, halsandhihi, achandhihi, sarvatra overview asti. So samagram samagraha vishayah api lekhaniyah iti asti. If you take achandhi, whatever is there in ashtadhyayi regarding achandhi. So I want to write a notes on the whole achandhi chapter. And whatever there is regarding halsandhi, I want to write a notes. But so that such corrections or such contents I can add if it is in a form of website. So if anyone is interested to help me in this regard, please message, mail me. So then I can, because all these are in Unicode format. So I type it in Unicode, so I can easily copy this. So content creation I can do. If someone can help in creating the website, I can give all these contents so that anyone can access this content easily. Copy asakta haste matlate email dwara. For question and answer, everything, it will be very easy. So now they have to register for Google group. Only those are registered, they can ask. Only those are registered, they can answer. But if it is in the form of website, anyone can ask question, many can answer the question. So it will be very easy, I think. So if anyone knows or anyone is capable of doing this, I can share the content. Okay, Shivaramji. Okay, Shivaramji, I will message you. Dhanyavada. Okay, anya kopi kapi sahayam kartum ichchet matkrate email dwara vadatu aham tatra militva karyam kartum shaknumah. Astu tarhi agrima paathe punarmilamah. Agrima paathe halanta napumsakalinga shabdanam vishaye kinchit janimah. Vakyakaram, Vararuchim, Bhashyakaram, Patanjalim, Paninim, Sutrakaram, Pranatosmi, Munitrayam.